ॐ श्री परमात्मने नमः। अथाष्टादशोऽध्यायः। अर्जुन उवाच। सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्। त्यागस्य च ऋषिकेश पृथक् केशि निषूदन। श्रीभगवान् उवाच। काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणः। याज्ञं दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदान तपः कर्म न त्याज्यमिति चापरे। निश्चयं शृणु मे पत्र त्यागे भरत सत्तम। त्यागो हि पुरुष व्याघ्र त्रिविधः संप्रकीर्तितः। यज्ञ दान तपः कर्म न त्याज्यं कार्यमेव तत्। यज्ञोदानं तपश्चैव पावनानि मनीषिणाम्। एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ मतमुत्तमम्। नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात्तस्य परित्यागः तामसः परिकीर्तितः। कर्म काय क्लेश भयात्यजेत्। सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत्। कार्यमित्येव यत्कर्म नियतं क्रियते जुन। त्यक्त्वा फलं चैव स त्यागः सात्विको मतः। न द्वेष्ट्य कुशलं कर्म कुशलेनानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्न संशय। त्यागी सत्यागीत्यभिधीयते अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् पञ्चैतानि महाबाहो कारणानि निबोध मे सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणां अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् पञ्चैते तस्य हेतवः तत्रैवं सति कर्तार मात्मानं केवलं तु यः पश्यत्यकृतबुद्धित्वा न स पश्यति दुर्मति यस्य नाहं कृतो भावो बुद्धिर्यस्य न लिप्यते हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्म चोदना करणं कर्म कर्तेति त्रिविध कर्म संग्रह ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः प्रोच्यते गुणसंख्याने यथावच्छृणुतान्यपि सर्वभूतेषु येनैकं भावमव्ययमीक्षते अविभक्तं विभक्तेषु तज्ज्ञानं वेद्धि सात्विकम् पृथक्त्वेन तुद्यज्ञानं नानाभावान् पृथग्विधान् वेत्ति सर्वेषु भूतेषु तज्ज्ञानं वेद्धि राजसम् यत्तु कृष्णवदेकस्मिन् कार्ये सप्तमहैतुकम् अतत्वार्थवदल्पं च तत्तामसमुदाहितम् नियतम् अफल प्रेप्सुना कर्म यत्तात्मिकमुच्यते यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः क्रियते बहुलायासं तद्राजसमुदाहितम् अनुबन्धं क्षयं हिंसा मनवेक्षत पौरुषम् मोहादारभ्यते कर्म यत्तत्तामसमुच्यते सांगो नहं वादी भीत्युत्साह समन्वितः सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते रागी कर्म फलते आत्मको शुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः अयुक्तः प्राकृतः स्तब्धः षठो नैष्कृतिकोलसः शादी दीर्घ सूत्री च कर्ता तामस उच्यते बुद्धिर्भेदं धृतेष्टैव गुणत त्रिविधं शृणु प्रोच्यमानमशेषेण त्वेन धनञ्जय प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति बुद्धिः सा पाठ सात्विकी यया धर्मधर्मं च कार्यं चाकार्यमेव च अयथावत् प्रजानाति बुद्धिः सा पार्थराजसी अधर्मं धर्ममिति या मान्यते तमसावृता सर्वार्थान् विपरीताश्च बुद्धिः सा पाठतामसी भीत्या यया धारयते मनः प्राणेन्द्रियक्रियः योगेनाव्यभिचारिण्या धृतिः सा पाठ सात्विकी यया तु धर्मकामार्थान् भीत्या धारयतेऽर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पाठ राजसी यया स्वप्नं भयं शोकं विषादं मदमेव च न विमोचति दुर्मेधा भीतिः सा पार्थ तामसी सुखं इदानीं त्रिविधम् अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति यत्तदग्रे विषमिव परिणामे मृतोपमम् तत्सुखम् सात्विकं प्रोक्त मात्मबुद्धि प्रसादजम् विषयेन्द्रिय संयोगा यत्तदग्रे मृतोपमम् परिणामे विषमिव श्रेयां स्वधर्मो ಬಂದಾಪ್ನೋತಿ ಕೀಳ್ ವಿಷಂ ಸಹಜಂ ಕರ್ಮ ಕಾಂತೇಯ ಸದೋಷಮಪಿ ನ ತ್ಯಜೇತ್ ಸರ್ವಾರಂಭ ಹಿ ದೋಷೇಣ ಧೂಮೇನಾಗ್ನಿರಿವಾವೃತಃ ಸ್ವಭಾವ
प्रसादान् मया च्युत
स्थितोऽस्मि गत संदेह करिष्ये वचनं तव। संजय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिममर्षौ च मद्भुतं रोमहर्षणम् व्यास प्रसादात् सुतवा नेतदूयमहम् परम् योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् केशवार्जुनयोः पुण्यम् हृष्यामि च मुहुर्मुहुः तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतम् हरेः विस्मयो मे महान् राजन् हृष्यामि च पुनः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूते ध्रुवा नीतिर्मतिर्मम यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धर तत्र श्रीर्विजयो भूति ध्रुवा नीतिर्मति मम तत्सत् श्रीमद्भगवद्गीता सूपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे मोक्षसन्न्यासयोगो नामाष्टादशः।